निर्णयः पितृवित्तोपयोधा सुप्रणीतिषोडशासोः शोनतीरतिधन्नप्रीणानोः देवदत्ता विधतो विदारीत् देवो न यस्य पिता सत्यमन्मा कृत्वा निपाति वृजनानि विश्वा गुरु प्रशस्तो अमजन्न सत्य आत्मेव सेवो दिधिरायो भूत् देवो न यः पृथिवीम् विश्वधायामुपक्षेति हितमित्रो न राजा पुरस्सदस्तन्मतो न वीरा न भद्यापतिनिष्टे भनारी तम् त्वा न रोदमानित्यमिद्धमग्ने सुरम् दक्षिणिषुद्ध्रुवासु अधिद्युम्नम् निजधुर्भूर्यस्मिन् भवा विश्वाय धरुणारीणा विवृक्षो अग्नेमघमानो अस्तुर्विशूरजो दधतो विश्वमायोः तने मवाजम् समिधेश्वर्यो भागम् देवेश्वश्रुवसे दधानाः ऋतस्य हिधेनवो वामसानास्मदोऽग्नेः पीपयम् दर्जभक्ताः परावतः सुमतिम् भिक्षमानापि सिन्धवः समया सस्रद्विम् ते अग्ने सुमतिम् भिक्षमाना दिविश्रवो दधिरे नित्यासः नक्ता च चक्रऋणताभिरूपे कृष्णम् च वर्णमरुणम् च सन्धुः याये मत्ताम् सुहृतो अग्ने ते स्याममघवानो भयम् च छाये भविष्यम् भुवानम् विरक्षामप्रिमा रोदासी अन्तरिक्षम् अर्वद्भिरग्ने अर्वतो नृभन्द्रे वीरैर्वीराम्भानुजमात्मोदाः ईशारासः पितृभित्तस्य राजो विशोरजः सदहीमानोऽस्युः एते अग्नमुचुधानि मेधो दुष्टानि सन्धुमनसे हृदे च सर्वेम राजसुधुराजमनते धिश्रवो देवभक्तम् दधानाः